इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि झा। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्यारभ्य घाना, त्रिनिदाद, टोबैगो, अर्जेंटीना, ब्राजील, नामीबिया इति पंच राष्ट्राणां यात्रायां भविष्यत्। प्रधानमंत्री पंच राष्ट्राणां यात्रायाः प्रथमे चरणे जुलाई मासस्य द्वितीय तृतीय दिनांके घाना देशस्य यात्रां करिष्यत्। एषा यात्रा तस्य प्रथमा द्विपक्षीया घाना देशस्य यात्रा अस्ति। अत्रावसरे श्रीमोदी घाना देशस्य राष्ट्रपतिना सह वार्तालापं विधास्य द्वयोः राष्ट्रयोः सशक्त द्विपक्षीय सहभागितायाः समीक्षा भविष्यत्। सममेव आर्थिक ऊर्जा, रक्षा सहकार्यं, विकास सहकार्य सहभागितां च वर्धयितुं बहुविध चर्चा भविष्यत्। केन्द्रीय मन्त्रिमण्डलेन सर्वक्षेत्रेषु वृत्ति सृजनमुद्दिश्य सामाजिक सुरक्षां प्रदातुं च विशेषावधानेन विनिर्माण क्षेत्रे सम्बद्ध प्रोत्साहन योजना अनुमोदिता। ह्यः नवदेहल्यां मन्त्रिमण्डलस्य निर्णयानां विषये प्रसार माध्यमान् सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवोचत् यत् प्रथमतया कार्यं कुर्वाणः कर्मचारिणः योजना अन्तर्गतं एकमासस्य वेतनं 15,000 रूप्यकाणि यावच्च प्राप्स्यन्ति इति। सः अवोचत् यत् नियुक्तृभ्यः अतिरिक्त वृत्त्युत्पादनार्थं वर्षद्वयं यावत् प्रोत्साहनं प्रदास्यते, अपि च विनिर्माण क्षेत्राय वर्षद्वयं यावत् विस्तृताः लाभाः दास्यन्ते इति।
फर्स्ट टाइमर्स के लिए एक महीने की सैलरी के बराबर सब्सिडी अप टू अ लिमिट ऑफ मैक्सिमम 15,000 रूपीज ये दी जाएगी, जो की दो इंस्टॉलमेंट्स में होगी, 6 महीने और 12 महीने के बाद में दी जाएगी। इससे एम्प्लॉयर्स को, कंपनीज को, दे विल बी एनकरेज टू हायर द फर्स्ट टाइम। दूसरा इसका पार्ट है जो सस्टेन्ड एम्प्लॉयमेंट देते हैं 2 साल के लिए, एवरी मंथ 3,000 रूपीज पर मंथ पर एम्प्लॉय, ये एक सपोर्ट मिलेगा। और जो मैन्युफैक्चरिंग इंडस्ट्रीज हैं उसमें ये सपोर्ट 4 साल के लिए मिलेगा।
अवधेयास्पदं वर्तते यत् योजनैषा प्रायः 1,00,000 कोटि रूप्यकाणां वर्तते। इयं योजना वर्षेषु 3,500 कोटि रूप्यकाणां वृत्त्यै प्रोत्साहनं प्रदातुं सन्नद्धा अस्ति। रक्षामन्त्री राजनाथ सिंहः अवोचत् यत् भयोत्पादनं विरुध्य प्रतिकारस्य अधिकारः भारतस्य अस्ति, सममेव कस्यापि आक्रमणस्य निवारणस्य अधिकारः अपि वर्तते। अमेरिका देशस्य रक्षा सचिवेन पीट हेग्सेट इत्यनेन सह दूरभाषया वार्तालापं कुर्वन् रक्षामन्त्री अवदत् यत् ऑपरेशन सिन्दूर इत्यभियाने भारतस्य कार्य सुव्यवस्थितमासीत्। श्री सिंहः, श्री हेग्सेट च भारत अमेरिका रक्षा सहभागिताम् इतोपि गहनं कर्तुं क्षमता निर्माण क्षेत्रे सहयोगं सुदृढं कर्तुं च वर्तमानस्य नूतनस्य च उपक्रमाणां समीक्षार्थं चर्चाम् अकुरुताम्। आगामि अमरनाथ यात्रायाः तीर्थयात्रिणां कृते सुगम यात्रा अनुभवं सुनिश्चेतुं भारतीय राष्ट्रिय राजमार्ग प्राधिकरण NHAI इत्यनया संस्थया ह्यः जम्मू कश्मीर प्रदेशयोः अधिकारिभिः सह वीडियो कॉन्फ्रेंसिंग माध्यमेन समीक्षा सभा आयोजित। यात्रा मार्गे स्थितस्य NH44 इत्यस्य 28,200 किलोमीटर दीर्घस्य जम्मू श्रीनगर खण्डस्य सर्वाणि खण्डानि विस्तृत रूपेण समीक्षितानि। सभां सम्बोधयन् संस्थायाः अध्यक्षः संतोष कुमार यादवः अधिकारिभ्यः निर्देशं दत्तवान् यत् ते स्थानीय प्रशासनेन सह निकट समन्वयेन कार्यं कुर्वन्तु, अपि च यात्रायाः सज्जतायाः कृते तत्क्षणं साहाय्यं यच्छन्तु इति। महिलानां T20 क्रिकेट क्रीडायां ब्रिस्टल इत्यत्र गतरात्रौ पञ्च क्रीडा श्रृंखलायाः द्वितीयायां स्पर्धायां भारतीय दलेन इंग्लैंड दलं 24 धावनांकैः पराजितम्। अमनजोत कौरः क्रीडायां उत्तम प्रदर्शनेन क्रीडा नायिकायाः उपाधिं च अवाप्नोत् इति वार्ताः।